अद्य सिद्धान्तकौमुद्याम् अजन्तपुल्लिङ्गप्रकरणे तृतीयो भागः डिसेम्बर् मासस्य दशमो दिनाङ्कः. गतशायाम् अजन्तपुल्लिङ्गप्रकरणे रामशब्दस्य प्रक्रिया आरब्धा. ततः प्राक् प्रायेण अर्थात् नामपदेषु प्रकृतिः अर्थात् प्रातिपदिकम् प्रातिपदिकसंज्ञा विधीयते सूत्रद्वयेन अर्थवदधातुरप्रत्ययः प्रातिपदिकम् तथा कृत्तर्थितसमासाश्च इत्येताभ्याम् सूत्राभ्याम्. प्रत्ययाः भवन्ति सुपः सुप्रत्ययाः सुऔजस् इत्यादि सूत्रेण विधीयन्ते. रामशब्दात् सुप्रत्यये कृते रामः इति रूपम्. कथम् राम इत्यस्मात् सु इति प्रत्ययः क्रियते. सुप्रत्यये उकारस्य उपदेशे अजनुनासिक इति इत्यनेन इत्संज्ञायाम् राम स इति स्थिते ससजुषोरुः इत्यनेन ऋत्वे खरवसानयोर्विसर्जनीयः इति रेफस्य विसर्गे रामः इति प्रथमाविभक्तौ एकवचने रूपम्. राम औ सु औ औ इति प्रथमाविभक्तौ द्विवचनप्रत्ययः. राम औ इति स्थिते प्रथमयोः पूर्वसवर्णः इति प्राप्तं पूर्वसवर्णदीर्घं बाधित्वा वृद्धिरेचि बाधित्वा अर्थात् नादिचि इति निषेधस्य सत्त्वात् अवर्णादिचि परे पूर्वसवर्णदीर्घः न स्यात् इत्युक्तत्वात् वृद्धिरेचि इत्यनेन वृद्धौ रामौ. राम औ अकाराद् औकारे परे औकारः एकादेशः रामौ. ततः रामाः राम जस् प्रत्ययः क्रियते. जस् प्रत्यये जकारस्य चुटु इत्यनेन इत्संज्ञा भवति. प्रत्ययाद्यौ चुटु चवर्गटवर्गौ इतौ स्तः इत्यनेन राम अस् इति स्थिते प्रथमयोः पूर्वसवर्णः इत्यनेन पूर्वसवर्णदीर्घः रामास्. ततः ऋत्वं ससजुषोरुः इत्यनेन ऋत्वं खरवसानयोर्विसर्जनीयः इति विसर्गे रामाः. रामः रामौ रामाः इति रूपत्रयं साधितम्. एनी डौट्स् इन् वाट् वि डिड् लास्ट् क्लास्? No? Okay. So let's move on. The next thing is actually there are only 7 vibhaktis. Prathama taha arabhya saptami. Sambodhana prathama ityeka vibhaktihi svikriyate kintu sa prithak vibhaktihi nasti. It is not separate vibhakti. What is a vibhakti? Can somebody tell me? And I say there is no sambodhana prathama vibhakti. What is vibhakti? Vibhaktihi nama ka? विभक्तिः नाम का?
सुप्तिङ्गौ विभक्तिसंयोगः सुपन्ति.
हा, सुप्रत्ययाः तिङ् प्रत्ययाश्च विभक्तिः इति संज्ञां प्राप्नुवन्ति. विभक्तिश्च इति सूत्रम्. सो इट् इस् ओन्ली द सुप् प्रत्ययास् एण्ड् द तिङ् प्रत्ययास् विच् गेट् द संज्ञा काल्ड् विभक्ति. नौ इफ् एण्ड् एस् वी नो दट् देर् इस् ओन्ली the supratyayas are only 21, so there is no separate vibhakti for sambodhana. Just that sambodhanecha ityanena sambodhanepi prathama vibhakti vidhiyate. So sambodhana prathama pratyayas are the same as prathama vibhakti pratyayas. Prathama vibhaktau ye pratyayah arthat su au jas teva pratyayah sambodhanepi bhavanti. Tarhi kaha visheshah sambodhana prathamayah prathamayashcha iti chet ekavachanam sambuddhih इति सूत्रम्. सम्बुद्धिः इति संज्ञा विधीयते. सम्बुद्धि इस् अ टर्म्, इट्स् अ टेक्निकल् टर्म् आफ् व्याकरण. पदद्वयं वर्तते. एकवचनं सम्बुद्धिः. प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा इति सूत्रात् प्रथमा इति अनुवर्तते. सम्बोधने च इति सूत्रात् सम्बोधने इति अनुवर्तते. कः अर्थः? सम्बोधने प्रथमायाः एकवचनं सम्बुद्धिसंज्ञं स्यात्. So there is no separate pratyaya, it is just the su pratyaya which is being used for sambodhana is being given a new name called sambuddhi. Sambodhane prathamayah ekavachanam, ekavachane eva visheshah, prathama vibhaktehe ekavachanasya yadi sambodhane sah pratyayah tarhi sambuddhihi iti samya diyate. So since Panini defines the term sambuddhi and he defines some karyas using the sambuddhi samya, that is why occasionally there is a difference between the rupa of prathama vibhakti and sambodhana prathama vibhakti. Nowhere, and I mean 100%, there is not a single case where there is a difference between dvivachana or bahuvachana rupas of sambodhana prathama. प्रथमा विभक्तौ द्विवचने यद्रूपं बहुवचने यद्रूपं तदेव रूपं भवति संबोधन प्रथमायामपि द्विवचने बहुवचने च एकवचने एव विशेषः भवितुम् अर्हति सर्वत्र भवति इति नास्ति इट इज नॉट दैट ऑलवेज प्रथमा एंड संबोधन प्रथमा डिफर बट इफ दे डिफर ओनली इन द एकवचन एंड व्हाट इज द रीजन बिकॉज तस्य एकवचनस्य संबुद्धिः इति संज्ञा वर्तते तत् संज्ञा प्रयुक्तानि कार्याणि भवन्ति संबुद्धि संज्ञा प्रयुक्तानि कार्याणि संबोधने एव भवन्ति न तु प्रथमा विभक्तौ अत एव क्वचित् विशेषः दृश्यते अस्तु इदानीम् एकवचनं संबुद्धिः इत्यनेन राम सु इति स्थिते संबोधने यदि रामः संबोधमिष्यते तर्हि संबोधने प्रथमा विभक्तौ हे राम सु हे इति केवलं संबोधनस्य सूचनार्थं वी यूज द हे राम ओन्ली टु इंडिकेट दट इट इज संबोधन एक्चुअली इट इज जस्ट राम एंड सु सो रामासु इति स्थिते सोजसमोत्सस् इत्यादिना सुप्रत्यये कृते सम्बुद्धिः एकवचनं सम्बुद्धिः इत्यनेन सम्बुद्धिसंज्ञा अस्ति अस्य सुप्रत्ययस्य इट् इस् अ प्रत्यय विच् गेट्स् द संज्ञा काल्ड् सम्बुद्धि तत्रापि उपदेशे अधनुनासिक इत्यनेन उकारस्य संज्ञायां तस्य लोपः इत्यनेन लोपे हे राम सु इत्यस्ति यथा रामासु इत्यत्र ससजुषोरुः इत्यत्र प्राप्तिः अत्रापि ससजुषोरुः इति प्राप्नोति तद् बाधित्वा कार्यमुच्यते एङ् ह्रस्वात् सम्बुद्धेः इति अग्रिमं सूत्रं पदद्वयम् एङ् ह्रस्वात् सम्बुद्धेः हल्याभ्यो दीर्घात् सुतिस्य प्रक्तं हल् इति सूत्रेण हल् इति अनुवर्तते लोपो व्योर्वलि इत्यतः लोपः इति अनुवर्तते हलः लोपः सम्बुद्धेः हलः लोपः इत्यतः सम्बुद्धिः नाम सम्बोधनप्रथमायाः एकवचनप्रत्ययः तस्य हलः लोपो भवति कदा भवति एङ् ह्रस्वात् एङ् इत्यस्मात् परः अस्ति चेत् ए ओ एकार ओकाराभ्यां परः अथवा ह्रस्वत्स्वरात् परश्चेत् सम्बुद्धेः हलः लोपः इति सामान्यतः अर्थः किन्तु अत्र अङ्गात् इति विशेषणं सम्बुद्धिपदेन आक्षिप्यते So if you look at this, the words, what is there in the sutra, what does it tell? Enghraswata sambuddhehe hal lopaha. Enghraswata sambuddhehe iti sutre shruyete pade hal lopaha iti padadvayam anuvartate. Kaha arthaha bhavati? Enghraswata parasya sambuddhehe halaha lopaha ittyeva arthaha. Kintu dikshitaihi vishishtaha kashtana arthaha diyate. Enghantat hraswantatcha angat parasya sambuddhehe halaha. चित्यते अंगात इति विशेष्यम सॉरी दिस इज देयर्स अ टाइपो हियर इट इज नॉट विशेषण इट्स अ विशेष्य एंघ्रस्वात इति विशेषणम अंगात इति विशेष्यम आक्षिप्यते सो व्हेन यू से व्हाट इज अंगा वी विल स्टडी बाय द एंड ऑफ दिस क्लास अंगा इज अनदर टर्म व्हिच इज यूज्ड बाय पाणिनि यस्मात् प्रत्यय विधिः तदादि प्रत्ययेङ्गम यस्मात् प्रत्ययः विधीयते दैट ऑन व्हिच वी ऐड अ प्रत्यय इज आई मीन गोइंग ब्रॉडली इट इज कॉल्ड एन अंगा For example, if you add the su pratyaya to the word Rama, Rama is an anga. Right. So, angat iti visheshyam, enghrasvat iti visheshanam. Tadakim bhavati, ena vithis tadantasyatyanena tadantavidhau, enghantat, hrasvantat, cha angat iti uchyate. Ataeva sutrartha likhitaha dikshitaihi, enghantat, hrasvantat, cha angat, hal lupyate, sambuddheshchet. Artha. हे राम सु इत्यस्ति इदानीं हे राम सु उकारस्य लोपे अस्य राम इत्यस्य अङ्गसंज्ञा वर्तते सो अङ्गा विल् डिफैन् अगेन् लेटर् फोर् नौ वाट् एवर् इस् द प्रकृति केन् बि ट्रीटेड् एस् अङ्गा फोर् नौ इट् इस् नाट् द एक्साक्ट् डिफिनेशन् आफ् अङ्गा बट् द प्रकृति विच् इस् राम दट् आन् विच् यु आड् अ प्रत्यय इस् अन् अङ्गा सो हियर् द अङ्गा इस् राम सूत्रार्थः कः एङन्तात् ह्रस्वान्तात् च अङ्गात् परः हल् लुप्यते अत्र ह्रस्वान्तम् अङ्गं वर्तते राम इति अङ्गं तच्च ह्रस्वकारान्तम् ह्रस्वान्तात् अङ्गात् परस्य परः हल् अर्थात् सकारः लुप्यते सम्बुद्धेश्चेत् सम्बुद्धेः सकारः देयरफोर सकारलोपे हे राम इति रूपम् क्लियर् सो Now the question is why that angat? Angat iti kimartham vaktavyam. You could have just as well said, Engaha hrasvatcha paraha hal lupyate sambuddheshchet. what we hear from the sutra is eng hrasvat hrasvat paraha sambuddhehe hal lupyate eng paraha sambuddhehe hal lupyate. Even with that meaning we do get here, there is a hrasva and following the hrasva there is a sakara. So hrasvat parasya sambuddhehe halaha lopaha ityukte api atra lopaha siddhyati kimartham angat iti akshepaha iti prashnaha. Is the question clear? The question is, I mean, what we did for deriving the sutrartha is eng hrasvat sambuddhehe iti sthite angat iti visheshyam akshepya eng hrasvat iti angasya visheshanam ityuktam eng hrasvat iti visheshanam angat iti visheshyam yena vidhis tadantasya visheshanam tadantasya sanyasyat sasya cha rupasya ityuktatvena eng hrasvat iti visheshanam engantat hrasvantat angat ityartha labhyate. That is what has been told by Dikshitar in the Sutrartha. Engantat hrasvantat cha angat hal lupyate sambuddhehe chet. He is introducing this word angat forcibly, even though it is not heard in the sutra and this sutra is not in the angadhikara, but still he wants this angat. He does not want the simple meaning of if there is an eng, a, o or hrasva followed by a hal of sambuddhi, that would be deleted. Is the simple meaning which would be we get from the sutra. But he adds this new parameter called angat, which means that the enganta or hrasvanta should belong to the anga. The anga should be either enganta or hrasvanta. So why that specification is the question. Because in this case there is no difference whether you say eng hrasvantat angat parasya sambuddhehe halaha lopaha athava hrasvat parasya sambuddhehe halaha lopaha rupe visheshah nasti. Hrasvat paraha api asti, hrasvantad angat paraha api asti. Kimartham angat iti visheshyam iti prashnaha. Sambuddhyam kshiptasya angasya eng hrasvabhyam visheshanat neha he katarat kuleti iti pratyudaharanam diyate. He katarat kula iti asti katara iti shabdaha akarantaha sarvanama. शब्दः हे कतर सु इति क्रियते संबोधने एकवचने सुप्रत्ययः तस्य सुप्रत्ययस्य अदड् इति आदेशः भवति अड्डतरादिभ्यः पञ्चभ्यः इति सूत्रेण प्रत्ययस्य सुप्रत्ययस्य स्थाने अदड् इति आदेशः तत्र डकारस्य हलन्त्यम् इत्यनेन इत्सम्या लोपः. सो यु हाव् हे कतर अद् डित्वात् यत्र प्रत्ययः डित् डकारः यस्मिन् प्रत्यये डकारः इत्सम्यकः भवति तत्र तेः लोपः इति सूत्रमस्ति. तेः इत्यनेन अङ्गे अर्थात् कतर इत्यस्य यः टि टि नाम किं वाट् इस् टि अचोन्त्यादि टि अचः अन्त्यादि अचां मध्ये यः अन्त्यः तदादिशब्दस्वरूपं टिसंज्ञं स्यात्. सो हियर् यु हेव् कतर अचां मध्ये अन्त्यः रेफात् परः अकारः अग्रे किमपि नास्ति अकारः टि तस्य टेः इत्यनेन अकारस्य लोपः हे कतर् अद् इत्यस्ति. क्लियर्? दिस् इस् अ प्रक्रिया आफ् कतरत् यु हेव् हे कतर् अण्ड् अद् नौ अण्ड् दिस् वेन् यु जायिन् दिस् इट् बिकम्स् हे कतरद्. If you notice here, katara ityatra repat paraha hrasvakaraha asti. Hrasvat paraha sambuddhehe hal. Supratyaha sambuddhihi. Sambuddhehe avayavaha hal asti. Hrasvat paraha sambuddhehe hal. Dakaraha asti. Atrapi eng hrasvat sambuddhehe ityanena lopaha syat. If we do not include angat in the sutrartha, if we just say whenever an eng, ekara, okara or hrasvasvara is followed by the hal of sambuddhi, that hal gets deleted. If that were the meaning, even here, since there is a hrasva akara, notice that dakara also belongs to the pratyaya. The pratyaya itself has a hrasva akara and it has a dakara. But if there is no anga, you still have a hrasva akara which is followed by a hal of sambuddhi, so the dakara should be deleted. But the rupa is he katarat, where dakara is not deleted. That is why Dikshitar says hrasvantat angat. Now, which is the anga is katara. That on which we have added the pratyaya is katara. This is the anga. The akara has been deleted. So now katar is the anga remaining. Katar iti angam, adu iti pratyaya. Hrasvantam angam nasti. There is no hrasvanta anga here. Right? रस्वात् परः सम्बुद्धेः हल् अस्ति, रस्वान्तम् अङ्गं नास्ति. दिस् अङ्ग इस् रेफान्त अण्ड् नाट् ह्रस्वान्त. द ह्रस्व अकार डस् नाट् बिलाङ्ग् टु द अङ्ग, इट् बिलाङ्ग् टु द प्रत्यय. दट् इस् वै he introduces the anga. If the anga is hrasvanta or inganta, then only there is a deletion, there is a lopa. If the hrasva belongs to the pratyaya, there is no lopa. That is why the meaning of ing hrasva sambuddhehe is decided as inganta hrasvanta cha angat paraha hal lupyate sambuddheshchet. Atra hrasvantam angam nasti, ataha atra lopaha na bhavati. अत्र लोपं निवारयितुं तत्र अङ्गात् इति आक्षिप्यते. यस्, वुड यू लाइक मी टू एक्सप्लेन इट अगेन ऑर इज दिस ओके?
क्यूरियोसिटी क्वेश्चन, द अंगस्य द डेफिनेशन ऑफ अंग कम्स लेटर इन द सूत्र सीक्वेंस और बिफोर?
आई मीन इन द कौमुदी इट कम्स लेटर. जस्ट for the Tritiya Vibhakti we have
in Panini it comes before, is it? But giving the Vartikam,
it does not matter. No, as in Panini, as long as it is in the Sapada Saptadhyayi, it does not matter whether it comes earlier or later. It is earlier, it's in the first chapter itself.
Oh, okay.
It does not matter,
it does,
because in the Sapada Saptadhyayi, the Samya Sutra, for a Samya Sutra, the number does not matter. Wherever the Samya Sutra is, we can still apply it.
Thank you.
Okay. Somebody wants it to repeat. Okay, I'll just repeat the whole part once more. Okay. Asmat Pratyavidhihi iti 1.4.13. Prathamadhyayase Chaturthapade asti. तथापि ओके. सो नाउ द क्वेश्चन इज एङ् ह्रस्वान् सम्बुद्धेः इति उच्यते. कः अर्थः वर्णितः दीक्षितैः एङन्तात् ह्रस्वान्ताच्च अङ्गात् हल्लुप्यते सम्बुद्धेश्चेत्. अङ्गात् इति विशेष्यम् उक्तम्, अर्थात् ह्रस्वः अथवा एकार ओकारः अङ्गस्य अन्ते अस्ति चेत्. अङ्गं ह्रस्वान्तम् एकार ओकारान्तं वा भवति चेत् एव लोपः, अन्यथा लोपः नास्ति इति सूत्रार्थः. सत्यं खलु? किमर्थं तथा वर्णनीयम्? केवलं ह्रस्वात् परः सम्बुद्धेः हल् लुप्यते इत्युक्ते को दोषः इति चेत्, हे कतरत् कुल इत्यत्र दोषः भवति. अत्र प्रक्रिया दर्शिता. कतर इत्यस्मात् सुप्रत्ययस्य अदडादेशे, अदडादेशे डकारस्य इत्वे, डित्वात् टेः इति टिलोपे, हे कतर् अद् इत्यस्ति. अत्र अङ्गं भवति कतर्, रेफान्तम् अङ्गम्, अद् इति प्रत्ययः. यदि अङ्गात् इति नोच्यते तर्हि अत्रापि ह्रस्वात् परः सम्बुद्धेः हल् इत्यनेन, अत्रापि एका एङ् ह्रस्वात् सम्बुद्धेः इत्यनेन लोपः स्यात्. देर् शुड् टेक्निकलि बि डिलीशन् हियर् बिकास् देर् इस् अ ह्रस्व विच् इस् फालोड् बै हल् आफ् सम्बुद्धि. बट् since dikshita says enganta chasvanta cha angat, the anga has to be rephanta or hrasvanta. In this case, since the anga is not hrasvanta, it is rephanta, there is no deletion here. yadyapi hrasvat parah sambuddhehe hal vartate tathapi hrasvantam angam nasti tasmad atra lopah na bhavati, atra lopam nivarayitum tatra angat iti visheshyam dattam. Now coming to Rama. Rama ityatra tu hrasvantam angam. Rama itself is the anga and it is hrasvanta. That is why we get deletion. He Rama su iti sthite, su pratyasya lope. He Rama. Ramaha Ramo Ramaha. He Rama. He Ramo He Ramaha. Ityatra bhedaha nasti. There is no difference in He Ramo He Ramaha. Vivachana and Bahuvachana are always the same. Right? Before that, there is one more factor in eng hrasvat sambuddheh. Eng grahanam kimartham? Eng hrasvat sambuddheh ityuchyate. Eng iti kimartham vaktavyam iti prashnah. Kevalam hrasvat sambuddheh ityeva sutram astu. Why don't we just say hrasvat sambuddheh lopah syat? Kimartham eng hrasvat iti uchyate. Uttaram diyate. He Hare, He Vishnu iti udaharanam dattam dikshitehi. Katham rupam? हरि शब्दस्य संबोधने एकवचने हे हरि सु इत्यस्ति. ह्रस्वस्य गुणः इत्यनेन इकारस्य गुणः क्रियते हे हरे सु इत्यस्ति अत्र ह्रस्वः नास्ति एकार इस् नाट् ह्रस्व दट् इस् वै इफ् वि जस्ट् से ह्रस्वात् सम्बुद्धेः देर् वुड् नाट् बि गुण सोरि देर् वुड् नाट् बि सम्बुद्धिलोप अत्रापि सम्बुद्धिलोपः इष्यते हे हरे इत्यत्र एङ् ह्रस्वात् सम्बुद्धेः इत्यनेन सकारलोपः इष्यते तस्मात् एङ् इति उच्यते सेम् प्रक्रिया एस् फोर् हे विष्णु हे विष्णु स् इति स्थिते ह्रस्वस्य गुणः इत्यनेन गुणे एङ् ह्रस्वात् सम्बुद्धेः इति सकारस्य लोपे हे विष्णु दट् इस् वै द एङ् ग्रहण टु एनेबल् डिलीशन् आफ् सकार वेन् फालोड् बै एकार आर् ओकार रैट् क्लियर् सो फार् but it is not so simple when you have he hari su why don't we delete the sakara first right atra api hrasvah asti hrasvasya gunah ityeva asti hrasvah eva asti he hari su he vishnu su iti sthite hrasvah eva asti adaveva hrasvat sambuddhehe let the sutra be only hrasvat sambuddhehe hrasvanta dangat parasya sambuddhehe halaha lopaha atra api hrasvah asti सम्बुद्धेः हलः लोपः भवतु सत्कारस्य लोपः लोपे कृते प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रमस्ति ईवन् आफ्टर् अ प्रत्यय हस् बीन् डिलीटेड् वि केन् स्टिल् डू अ कार्य बेस्ड् आन् दट् प्रत्यय बै वाट् वि काल् अस् प्रत्ययलक्षण ईवन् वेन् द प्रत्यय हस् बीन् डिलीटेड् तन्निमित्तकं कार्यं भवति प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन ह्रस्वस्य गुणः इति गुणः कर्तुं शक्यते तस्मात् ह्रस्वात् सम्बुद्धेः इत्येव सूत्रमस्तु एङ्ग्रहणं किमर्थम् इति प्रश्नकर्तुः आशयः दट् इस् वाट् द क्वश्चनर् वाण्ट्स् टु से ईवन् इफ् दर् इस् नो एङ् ईवन् इफ् द सूत्र इस् जस्ट् ह्रस्वात् सम्बुद्धेः वेन् वी हेव् हे हरि सु विल् जस्ट् अप्लै ह्रस्वात् सम्बुद्धेः फस्ट् एण्ड् डिलीट् द सकार आफ्टर् द सकार हेस् बीन् डिलीटेड् वि केन् स्टिल् डू गुण यूसिङ्ग् ह्रस्वस्य गुणः एण्ड् यु हेव् हे हरे वाट् इस् द प्राब्लम् सो वै शुड् यु इन्क्लूड् एङ् हियर् just reverse these steps so first delete the sakara and then do the guna iti prashnah he hari su iti sthite hrasvat paratva sambuddhi lope adaveva hrasvanta rangat paraha sambuddhehe hal lupyate ityanena lupyate tatah pratyaya lope pratyaya lakshanam ityanena pratyaya lakshane hrasvasya gunaha iti gunaha bhavati tada eng grahanam navashyakam sarvatra wherever you have a or o the a or o is derived from ikara so why do you need this is the question clear tada kim uchyate so what is the question now he hari su ityasti hrasvat sambuddhehe iti lopah karaniyova hrasvasya gunah ityanena gunah karaniyova iti prashnah now our question would be when we have he hari su which should come first should the sambuddhi lopa come first or should guna come first is the question किमुच्यते परत्वात् नित्यत्वात् च ह्रस्वस्य गुणः इत्येव भवति इति दीक्षितैः लिखितं परत्वात् नित्यत्वात् च फस्ट् थिङ्ग् इफ् यु नोटिस् ह्रस्वस्य गुणः इस् पर ह्रस्वात् सम्बुद्धेः इति षष्ठाध्याये प्रथमपादे वर्तते ह्रस्वस्य गुणः इति सप्तमाध्याये तृतीयपादे वर्तते परं कार्यं भवति सर्वदा इत्यनेन परत्वात् ह्रस्वस्य गुणः इति भवेत् अपि च नित्यत्वात् देर् इस् आल्सो वन् मोर् cause for doing hrasvasya gunaha first which is nitya now nitya means compulsory there are two contexts in which nitya is used in vyakarana one is to mean a compulsory sutra which is not optional that is one type of nityatva but also there is a technical term called nitya krita krita prasangi shastram nityam iti nityatvasya lakshanam krita akrita prasangi shastram nityam kaha arthah you have a sutra a and this is sutra b okay now sutra a will can apply both before applying b and after applying b but sutra b will not apply if you apply a then we have this nitya anitya for example here this gunaha lope krite api gunaha bhavati lope akrite when you have he hari su if you delete the pratyaya first hrasvat sambuddhehe itinena sakarasya lopah kriyate chet तथापि प्रत्ययलक्षणेन गुणः भवति इफ् यु डु नाट् डिलीट् द सकार आल्सो ह्रस्वस्य गुणः इत्यनेन गुणः भवत्येव वेदर् यु अप्लै एङ् ह्रस्वात् सम्बुद्धेः आर् नाट् यु विल् स्टिल् गेट् द गुण बट् गुणे कृते इफ् द सूत्र इस् ओन्लि ह्रस्वात् सम्बुद्धेः एण्ड् वि डु गुण फस्ट् देन् दिस् वुड् नाट् अप्लै the lopa would not apply because there is no hrasva. Clear? So guna can apply either after the lopa or before the lopa, but lopa will not apply after the guna. So in this case we call guna is nitya and lopa is anitya. Gunaha nityaha krita krita prasangi lope kritepi gunaha bhavati lope akritepi gunaha bhavati kintu gune krite lopaha na bhavati. If we do guna first, there will not be lopa. You should notice that the argument is assuming the sutra is only hrasvat sambuddhe hai. There is no engrahana. We are trying to prove why engrahana is essential. If there is no engrahana and the sutra is just hrasvat sambuddhe hai, after we do guna there would not be sambuddhi lopa. But guna will happen either if sambuddhi lopa happens or not. So in this case gunaha nityaha, sambuddhi lopaha anityaha. Adau paribhasha prakarane paribhasha asit paranityantarangapavadanam uttarottaram valiyaha parat nityam balavat. The nitya is even more powerful than para. So now you see that rasvasya gunaha iti parasutram nitya sutram cha. It is both para and nitya. This being the case, we have to apply hrasvasya gunaha first. If we apply, that is the prakriyan siddhanta, we have to apply hrasvasya gunaha. He harisu iti sthite paratvat nityatvacha sambuddhi gunaha eva bhavati. We have to do guna. Once guna is done, there is no hrasva. So we cannot apply hrasvat sambuddhe hai. That is why Panini had to say, eng hrasvat sambuddhe hai. Eng anta adapi angat sambuddhe hai halaha lopaha bhavati. Tasmat sutre eng grahanam avashyakam. The conclusion is that is why we require eng in the sutra. Okay, is the argument clear? The question, kritakrita prasangi, have rasvaikara or dirghaikara? It depends on what is the visheshya. If you are saying kritakrita prasangi vidhihi, yadi vidhehe visheshanam tarhi dirghaha, but I have taken kritakrita prasangi shastram. Shastram ityasya napumsakatvata prasangi ityatrapi hrasvaha. Depends on the visheshya. If the visheshya is something else, say you are taking yogaha or vidhihi, then it would be kritakrita prasangi vidhihi, kritakrita prasangi shastram. Okay. Any questions with this? Engrasat sambuddhe hai? There are two questions, two shastra questions which have been dealt with engrasat sambuddhe hai. One was why say angat? Enganta thasvanta cha angat iti kimartham uchyate iti prathamah prashnaha. Eng grahanam kimartham iti dvitiyah prashnaha. Both of these are not needed for the rupa siddhi. Rupa siddhi is very simple. He rama su iti sthite sambuddhi lopaha he rama. But Kaumudi is not just a prakriya grantha. Right? That is why, Kaumudi is always easier if you have studied the Laghu Kaumudi earlier. Prakriya yaha jnanam yadi asti, tarhi siddhanta jnanartham. Kaumudi is a grantha for vyakarana shastra pravesha. You should know how the shastra goes or how the shastrakaras think. That is why all this is needed. If there are people who are studying prakriya for the first time, please ignore all this and just concentrate on the prakriya part of it. What is the sutra, where it applies and how, what is happening, right? That, and for even for people who are studying this for a general knowledge of grammar, prakriya jnanartham idhyadhiyate tarhi prakriya jnane eva lakshyam syat etadapi avashyakam, but this is more the shastra part than the prakriya part. Yeah? Now coming back to prakriya, he rama ityasmat supratyaye krute ekavachanam sambuddhihi ityanena sambuddhi samyayam eng hasvat sambuddhehe iti sambuddhi lope he rama iti rupam. He ramau, he rama au riddhirechi he ramau prathamayo purva savarnaha ruttam visargascha he ramaha. Dithiya vibhakti ekavachane am pratyaha saujasamot ityadina am pratyaha krete su au jas am rama am iti sthite kim bhavet. What would be the sutra to apply here? The question. Can somebody attempt? What would be the general Sandhi Sutra to apply here? It's the first sutra that comes to mind when we see Rama Am. Kim Bhavet. Masuji? Hello? Okay. I can't hear him. Govindaha Adati, Akasavarne Dirkaha. So the first sutra which we would think of applying here is Akasavarne Dirkaha. Akaha Savarne Achipare Dirkaha Syat. Okay. Tasya Apavadatvena Kimapi Astiva. Is there a sutra which is an exception to Akasavarne Dirkaha? Hiralalji?
No,
okay, so is there an exception to Akasavarne Dirkaha which could apply here? Vasuji, I cannot hear you.
Hello, can you hear me now?
Yes, please do.
Yeah. When the akara is a guna like I will is from atma.
Exactly. Ato gune. Akasavarne dirkaha ityatya apavadatvena ato gune iti sutra marci. Kaha arthaha apadanta dakarat gune parataha pararupam ekadeshah syat. If there is apadante akaraha, tasmat gunaha akaraha gunaha adeng gunaha. Apadanta dakarat gune parataha pararupam ekadeshah syat. Ityanena ato gune iti pararupam prapnoti. Right? So, can we do atogune or this is then something which overrides atogune? Atogune ityetamupi badhitva kimapi sutram pravartateva. What did we do when we had Rama as Tatrapi Yameva Stiti? Akasavarne Dirkaha iti Savarna Dirkhe Prapte Tam Badhitva Rama as Ato Gune Ittenena Gune Prapte Kim Kratam Satyam Prathamayo Purva Savarnaha Ittenena Purva Savarna Dirkaha Krataha Akaha Prathama Ditiya Yoho Achipare Purva Savarna Dirkaha Ekadesha Hasyat Sutrataha Paratvat Ato Gune is an exception to Akasavarne Dirkaha. But Prathamayoh Purva Savarnaha is also an exception. When there is a clash between Atogune and Prathamayoh Purva Savarnaha, we always do Prathamayoh Purva Savarnaha. Paratva, Vipratishethe, Param Karyam. So here, Prathamayoh Purva Savarnaha, iti Purva Savarna Dirghe, Prapte. Adu, Akasavarna Dirghaha, ityanena Savarna Dirghe, Prapte. Tadapavadatvena, Atogune, iti Pararupe, Prapte. Tadvadhitva, Paratvat, Prathamayoh Purva Savarnaha. Prapte Kimapina Bhavati. None of these apply. Ami Purvaha. Iti Vishishtam Sutram. Yatra Yatra Am Pratyaha Bhavati. Tatra Sarvatra Asyaiva Sutrasya Pravrittihi. Wherever we have Am, whether in Sup or in Tingantas, everywhere Ami Purvaha has to apply. Padadvayam Ami Purvaha. Iko Enachi Ityataha Achi Iti Anuvartate. Akasavarane Dirghaha Ityataha Akaha. Iti anuvartate, ekah purva parayoho ityadhikaraha. Akaha amyachi parataha purva rupam ekadeshah syat. Akaha akvarnebhyaha amyachi am pratyasya yaha ach arthat akaraha tasmin pare purva rupam ekadeshah bhavati. Rama am ityasti Rama a am purva akaraha ak akaha ami achi ama achnama ayam akaraha purva parayohu sthane purva rupam arthat ayam akaraha eva adeshah bhavati ram a m ramam iti rupam So this is the same in Hari, it is Harim. Guru becomes Gurum. Whatever is the Pratipadika, effectively we are only adding the Makara. Because everywhere, wherever there is Am, there is a Purva Rupa. Ami Purva Haitinena Purva Rupa, Ramam Iti Rupam. Akaha Ami Achiparataha, Purva Rupa Mekadesha Hasyat. Purva Rupa overrides everything else. Whether it is Savarna Dirgha or Guna or Prathamaya Purva Savarga. Ramam Iti Rupam. Prakriya is still very simple. It's just one sutra, Ami Purvaha. Rama Am, Ami Purvaha Iti Purva Rupe, Ramam. Clear? Then you have out. Su, au, jas, am, out. Out Iti Pratyaha, Tatra Takarasya, Halantyam Ityanena, Itsamya. So Pratyaha Vastataha, au Ityeva Shishyate. So why Takara? Why should Panini say au and out? Prathamaya bhakto divachane au iti pratyaha. Dityaya bhakto divachane out iti pratyaha. Kvapi rupa bhedaha nasti. There is not a single case where there would be a rupa bheda between prathamaya divachana and dityaya divachana. They are always the same. The pratyaya is effectively au. So why does he put a takara there? What could be the purpose of an extra takara?
I think it is because he creates pratyahara with sutta.
Exactly. Right. So takara, wherever we have an Sudana Pumsakasya Sakti. You should notice that the itsamyas have different purposes. Right? For example, there is an itsamya, we did the previous katarata. If there is a dakara as itsamya, there could be a lopa. If ngakara is itsamya, there could be a guna nishedha or vriddhi nishedha. Or something else, gher niti, there could be a guna also. But you should remember that one of the primary purposes of itsamya is also pratyahara. If there is no other purpose, then it would be to create a pratyahara. Adir antyena saheta, antyena ita sahitaha adihi, madhyaganam svasthita samyasya ityanena pratyaharaha kriyate. Atra su iti sukara darabhya, su au jas am out, iti panchanam pratyaharanam, panchanam pratyayanam, sut iti pratyaharaha kriyate. Panini wants to group these five pratyayas into one. They are given some other samya, which we will see later. To group those five pratyayas into one, he needs to create a pratyahara, an abbreviation. That is why he adds a takara at the end. And he says sut. Sut would mean su, au, jas, am, out. And that is why the takara is there. And it does not lead to any change in rupa. Rama, au, vriddhirechi, ityanena, vriddhau, ramau, ityeva rupam. Ramam, ramau. Tataha Rama Shas. Dityaya bhakto bahuvachane pratyaha bhavati Shas pratyaha. Shas pratyaye shakarasya itsamya apekshyate. Tadartham nutanamidam sutram lashakva tadhite. Patadvayam la sha ku atadhite. Iti anuvartate. La sha lakara shakara ku kavargaha. Ityatesham itsamya bhavati. Upadeshe ajanunasika ityataha it anuvartate. Adihi iti pratyayasya iti pratyayasya adau yadi la sha kavargaha santi tasya it iti samya bhavati atadhite tadhita pratyayeshu na bhavati tadhita varja pratyayadyaha la sha kavargaha itah syuhu iti sutrarthah. So wherever there is a lakara, shakara or kavarga kakhagaghanga at the beginning of a pratyaya, it would get it samya, and there is no it samya if it is a tadhita pratyaya. इदानीम् अयं तद्धितः नास्ति शस् इति सुप्रत्ययः प्रत्ययस्य आदौ शकारः विद्यते लशक् तद्धिते इति शसः शस्य इत्सम्य शकारस्य इत्सम्य अस् इति भवति सो जस् आल्सो द जकार गेट्स इत्सम्य एंड इट बिकम्स अस् शस् आल्सो बिकम्स अस् राम शस् इति अस्ति लशक् तद्धिते इति शकारस्य इत्सम्यायां तस्य लोपे राम अस् इति Mm. ततः किं भवति प्रथमयोः पूर्वसवर्णः यथा जसि पूर्वसवर्णदीर्घः क्रियते तथा अत्रापि प्रथमयोः पूर्वसवर्णः अकस्सवर्णे दीर्घः इति सवर्णदीर्घे प्राप्ते तस्य अपवादत्वेन अतो गुणे इति गुणे प्राप्ते परत्वात् पूर्वसवर्णदीर्घः इति रामास् प्रथमयोः पूर्वसवर्णः इत्यनेन अकारस्य दीर्घे रामास् इति रूपम् अग्रे किं भवेत् जसि रामाः ऋत्वं विसर्गश्च कृतः किन्तु अत्र किञ्चित् भिनत्ति Before that, there is a question about Lashakva Tadhyate. Saying Lashakva Varga, can we say Lavarga, Shavarga and Kavarga? Why put Kavarga only for the Kakara? Ku is just the Anudit Savarnasya Chaprateha. Uditvat Kakaraha eva Savarnan Grinhati. Lakaraha pi Savarnan Grinhati. Kintu tadartham Lavargaha iti nocchete. Lakarena निरनुनासिकः लकारः साननासिकश्च लकारः गृह्यते यदि अस्ति साननासिकः लकारः प्रत्ययेषु नास्ति षकारः अस्ति षकारस्य सवर्णाः न सन्ति कवर्गः कु इति उदित्वात् ककारः एव सवर्णान् गृह्णाति तदेव वयं कवर्गः इति वदामः वस्तुतः ककारस्य सवर्णाः इत्येव अर्थः पाणिनिजस्य लश वै कु हि इस् टेकिङ्ग् क ख ग घ ङ रैट् There is no varga. If you mean in the sutra artha, lasha ka vargaha, well yes, maybe. But it is lakarashta shakarashta ka vargashta, lasha ka vargaha. Oh sorry, it is actually lashta shashta ka vargashta, lasha ka vargaha, iti samartha. So, yeah. It could be because... द्वन्द्वान्ते श्रूयमाणशब्दः प्रत्येकं सम्बध्नाति इति अस्ति किन्तु लवर्गः शवर्गः इति वा प्रयोगः नास्ति अत एव कवर्गेण सहैव सम्बध्यते ओके हा इदानीं रामास् प्रथमयोः पूर्वसवर्णः इत्यनेन पूर्वसवर्णदीर्घे कृते तस्मात् छसो नः पुंसि तस्मात् प्रथमयोः पूर्वसवर्णः इति षष्ठाध्यायस्य प्रथमपादस्य 102 द्वितीयोत्तरशततमं सूत्रम् देन् इमीडियट्लि हि सेस् तस्मात् छसः नः पुंसि तस्मात् अर्थात् कृतपूर्वसवर्णदीर्घात् शसः सकारस्य नः नकारः आदेशः भवति पुंसि पुल्लिङ्गे तेन अत्र रामास् इत्यत्र सवर्णदीर्घः पूर्वसवर्णदीर्घः कृतः पुल्लिङ्गशब्दः सकारस्य स्थाने नकारादेशे रामान् इति रूपम् सो वेर् दिस् अप्लैस् ओन्ली आफ्टर् वि डु पूर्वसवर्णदीर्घः बिकास् इट् सेस् तस्मात् प्रथमयोः पूर्वसवर्णः तस्मात् अर्थात् कृतपूर्वसवर्णदीर्घात् छसः शस् प्रत्ययस्य नकारादेशः भवति अलोन्त्यस्य इत्यनेन अन्तादेशः सकारस्य स्थाने नकारः पुल्लिङ्गे भवति रामान् अत एव रामान् हरीन् गुरून् पितॄन् सर्वत्र द्वितीयाविभक्तो बहुवचने नकारः श्रूयते रामान् इस् द रूप दीक्षित देर् इस् अन् आक्षेप हियर् केन् वि डु अणत्व अत्र नकारस्य स्थाने णकारः भवति वा इति प्रश्नः विल् सी द आन्सर् इन् द नेक्स्ट् क्लास् But actually the natva will not happen. He raises a question, can we do natva? And then the answer is that no, there is no natva. So the rupa is Raman. Rama shas, Rama as. Prathamayoh purva savarnaha ityanena purva savarna dirghe Ramas. Tasmat chaho na pumsi iti natve Raman. Iti rupam. So we'll see the natva thing next class. Any doubts so far? No? Can we stop? येनाक्षरसमां नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः मुनित्तयं नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीहिं विरच्यते